నరసావర్తమానో నివేశయన్నమృతం మద్యం చ హిరణ్యయేన స పితారథేనా దేవో యాతి భువనాది పశ్యన్ అగ్నిం దూతం వృణీమహే హోతారం విశ్వవేదసం అస్య యజ్ఞస్య సుక్రతుం ఏషామీషే పశుపతిః పశూనాం చతుష్పదాముతచద్ధిపదా నిష్క్రియో యజ్ఞియం భాగమేతురాయస్పోషాయమానస్య సంతో
అధిదేవతా ప్రత్యధిదేవతా సహితాయ భగవతే సూర్యాయ నమః.
ఓం అగ్నిర్మూర్ధాదివ ప్రకృపతిః పృథివ్యా అయం అపాగుం రేతాగుంసి జింబీ యోనా పృథివిభవానక్షరా నివేశనీ యథా నశర్మ సప్రథాః క్షేత్రస్య పదినా వయగుంహితేనే వజయామసి గామస్వం వోషయిత్వాసనో మృడాదీదృశే.
అధిదేవతా ప్రత్యధిదేవతా సహితాయ భగవతే అంగారకాయ నమః.
ఓం ప్రభః శుక్రాయ భానవే భరద్ధనుం హవ్యం మతిం చాగ్నయే సుపూతం యో దైవ్యాని మానుషా జనో గశ్యంతర్విశ్వాని విద్వనా జిగాతి ఇంద్రాణి మాసునాదిషు సువర్ణి మహవశ్వరం నశ్యస్యా అపరం జన జలసామరతే పతిః ఇంద్రం యో విశ్వతస్పరిహవామహే జనేభ్యః అస్మాకమస్తు కేవలః.
అధిదేవతా ప్రత్యధిదేవతా సహితాయ భగవతే శుక్రాయ నమః.
ఓం ఆప్యాయ స్వసమేతుదే విశ్వతః సోమవృష్ణియం భవావాదస్య సంగతే అప్సు మే సోమో అబ్రవీదంతర్విశ్వాని భేషజా అగ్నిం చ విశ్వశంభువమాపశ్చ విశ్వభేషజీః గౌరీ విమాయస లినాక్షత్యేకపదీ ద్విపదీ సా చతుష్పదీ అష్టాపదీ నవపదీ బభూషీ సహస్రాక్షరాపరమే వ్యోమన్.
అధిదేవతా ప్రత్యధిదేవతా సహితాయ భగవతే సోమాయ నమః.
ఓం ఉద్బుద్ధస్వాగ్నే ప్రతిదాగృష్యేణ విష్టా పూర్తే సంసృతే సామయం చ పునః కృణ్వద్వస్వామితరయ్యువానమన్వాదాగుంసీద్వయితంతుమేకం ఇదం నిష్పర్విచక్రమే క్రేధాని తథే పదం సమూఢమస్య పాగుంసురే విష్ణోరరాగమసి విష్ణో పృష్ఠమసి విష్ణోశ్చక్రే స్వో విష్ణో స్యూరసి విష్ణో ధ్రువమసి వైష్ణవమసి విష్ణవే త్వా.
అధిదేవతా ప్రత్యధిదేవతా సహితాయ భగవతే బుధాయ నమః.
ఓం బృహస్పతే అధియధర్యో ్రతుమజ్జనేషో యద్దీదయచ్చవ సర్ప ప్రజా తదస్మాసుభినందేహి చిత్రం ఇంద్రమరుక్క ఇహ పాహి సోమయ్యథాశార్యాతే అభివస్సుతస్య తవ ప్రణీతి తవ శూరశర్మన్నాదివాసంతి గమయస్సు యజ్ఞాః బ్రహ్మజ్ఞానం ప్రథమం పురస్థాద్విశీమతస్సు రుచోభేన ఆవహ స బుద్ధియా ఉపమా అస్య విష్టా సతశ్చ యో నిమసతశ్చ వివహ.
అధిదేవతా ప్రత్యధిదేవతా సహితాయ భగవతే బృహస్పతయే నమః.
ఓం షన్నో దేవీ రభిష్టయావో భవంతు ప్రీతయే శయ్యో రభిశ్రవంతు నః ప్రజాపతేన త్వదేతాన్యన్యో విశ్వా జాతాని బలితా బభూవ యత్కామాస్తే దుహుమస్తన్నో అస్తు వయగ్రస్యామవతయోరహీనాం ఇమయ్యమప్రస్తరమాహిజీదాంగిలోభి పితృభిః సంవిధానః ఆక్వామందాకవిశస్తావహంతే నారాజన హవిషామాదయస్వ
అధిదేవతా ప్రత్యధిదేవతా సహితాయ భగవతే శనైశ్చరాయ నమః. ఓం
కజానశ్చిత్రా భవదూతి సదా పృథః సఖా కజా సచిష్టజా భృతా ఆలింగౌ వృష్టిరక్రమేదసన్మాతరం పునః పితరం చ ప్రయాన్ సువః యత్తే దేవీ నిరతిరాపబంధదామగ్రీవా స్వవిధత్యం ఇదం తేతద్యశ్యామ్యాయుషో నమధ్యా తథా దీవ పితుమధ్య ప్రముక్తః.
అధిదేవతా ప్రత్యధిదేవతా సహితాయ భగవతే రాహవే నమః. ఓం
కేతుం కృణ్వన్న కేతవే పేషో మల్యా అపేషసే సముషద్భిరదాయథా బ్రహ్మా దేవానాం పదవీకవీనాం సర్వప్రాణాం మహేశో మృగానాం శేనో గృధ్రా నాగస్వధి దర్వణా నాగుం సోమః పవిత్రమత్యే తిరే భన్నే సచిత్ర చిత్రం చితయంతమస్మే చిత్రక్షత్రచిత్రదం వయోధా చంద్రం వయంపురువీరం బృహంతం చంద్రచంద్రాభిర్ణరేయువస్వ.
అధిదేవతా ప్రత్యధిదేవతా సహితాయ భగవతే చేతవే నమః.
ఓం ఆసక్తే నరదసా వర్తమానో నివేశయన్నమృతం మద్యం చ హిరణ్యయేన సవితారథేనా దేవో యాతి భువనాని పశ్యన్ అగ్నిం దూతం ప్రణీమహే హోతారం విశ్వవేదసం అస్య యజ్ఞస్య సుక్రతుం ఏషామీషే పశుపతిః పశూనాం చతుష్పదాముతచద్ధిపదాం నిష్క్రియో యజ్ఞియం భాగమేతురాయ స్పోషాయుజమానస్య సంతో.
అధిదేవతా ప్రత్యధిదేవతా సహితాయ భగవతే సూర్యాయ నమః.
ఓం అగ్నిర్మూర్ధా దివక్రకుత్పతిః పృథివ్యా అయం అపాగుం రేరాగుంసి జింగతి యోనా పృథివిభవానక్షరా నివేశనీ యచ్ఛా నః శర్మ సప్రథాః క్షేత్రస్య పదినా వయగుంహితేనే వజయామసి గామశ్వం వోషయిత్వాసనో మృడాదీదృశే.
అధిదేవతా ప్రత్యధిదేవతా సహితాయ భగవతే అంగారకాయ నమః.
ఓం ప్రభః శుక్రాయ భానవే భరద్ధనుం హవ్యం మతింఛాగ్నయే సుపూతం యో దైవ్యాని మానుషా జనో గశ్యంతర్విశ్వాని దిగ్గనా జిగాతి ఇంద్రాణి మాసునాదిషు సువర్ణీ మహమశ్రమం నశ్యస్యా అపరం జనజర సామరతే పతిః ఇంద్రం యో విశ్వతస్పరిహవామహే జనేభ్యః అస్మాకమస్తు కేవలః.
అధిదేవతా ప్రత్యధిదేవతా సహితాయ భగవతే శుక్రాయ నమః.
ఓం ఆప్యాయస్వసమేతుదే విశ్వతః సోమవృష్ణియం భవావాదస్య సంగతే అప్సు మే సోమో అబ్రవీదంతర్విశ్వాని భేషజ అగ్నిం చ విశ్వశంభువమాపశ్చ విశ్వభేషజీః గౌరీమాయస నితక్షత్యేకపదీ ద్విపదీ సా చతుష్పదీ అష్టాపదీ నవపదీ బభూభుషీ సహస్రాక్షరాపరమే వ్యోమన్.
అధిదేవతా ప్రత్యధిదేవతా సహితాయ భగవతే సోమాయ నమః.
ఓం उद्बुद्धस्वाग्ने प्रतिदादृश्येण मिष्टा पूर्ते सकुंसते सामयम् च पुनः कृण्वद्वस्त्वा पितरञ्जवानमन्वादांसीत्वयितन्तुमेतम् इदम् निष्पर्विचक्रमे क्रेधानि तथे पदम् समूढमस्य पागुंसुरे विष्णो रराटमसि विष्णो पृष्ठमसि विष्णोश्चक्रे स्वो विष्णो स्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा
अधिदेवता प्रत्यधिदेवता सहिताय भगवते बुधाय नमः ॐ
बृहस्पते अधियधर्यो अर्हाद्युमद्विभाधिप्रतुमज्जनेषु यद्दीदयच्छवसर्पप्रजा तदस्मासुद्रविनन्देहि चित्रम् इन्द्रमरुक्क इह पाहि सोमै यथा शार्याते अपि वस्तुतस्य तव प्रणीति तव शूरशर्मन्नापि वासन्ति गमयस्सु यज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषीमतः सुरुचोकेन आवह स बुद्धिया उपमा अस्य दृष्टाः सतश्च यो निमसतश्च विवः
अधिदेवता प्रत्यधिदेवता सहिताय भगवते बृहस्पतये नमः
ॐ शन्नो देवीरभिष्टयामो भवन्तु प्रीतये शय्योरभिस्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि बलिता बभूव यत्कामास्ते दुहुमस्तन्नो अस्तु वयज्ञस्यामवतयोरहीनाम् इमयमप्रस्तरमाहिषीदाङ्गिरोभिः पितृभिः संविधानः आत्मामन्दाष्टविशस्तावहन्तेनाराजन हविषामादयस्व
अधिदेवता प्रत्यधिदेवता सहिताय भगवते शनैश्चराय नमः
कयानश्चित्त्वा भुवदूती सदा वृथः सखा कया सचिष्ठया भृता आलिङ्गौ वृष्टिरक्रमेदसरन्मातरम् पुनः पितरम् च प्रयान् सुवः यत्ते देवी निररुतिरापपम् तदामग्रीवा स्वविधत्यम् इदम् ते तद्दृश्याम्यायुषो न मध्या तथा जीवपितुमद्य प्रमुक्तः
अधिदेवता प्रत्यधिदेवता सहिताय भगवते राहवे नमः
ॐ केतुम् कृण्वन्न केतवे पेशो मल्या अपेशसे समुषद्भिरदा यथा ब्रह्मा देवानाम् पदवी कवीनाम् ऋषिविप्राणाम् महिषो मृगानाम् श्येनो गृध्रा नागस्वधि दर्वणा नागुम् सोमः पवित्रमत्ये गिरे भण्डे सचित्रचित्रम् चितयन्तमस्मे चित्रक्षत्रचित्रतम्बयोधा चन्द्रम् रयिम् पुरुवीरम् बृहन्तम् चन्द्रचन्द्रापृणरेयुवस्व
अधिदेवता प्रत्यधिदेवता सहिताय भगवते चेतवे नमः
ॐ आसक्ते नरदसा वर्तमानो निवेशयन्नमृतम् मद्यम् च हिरण्ययेन स पिता रथेना देवो याति भुवनानि पश्यन् अग्निम् दूतम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुकृतम् येषामीशे पशुपतिः पशूनाम् चतुष्पदामुतचद्धिपदा निष्क्रियो यै यज्ञियम् भागमेतुराय स्पोषाभिजमानस्य सन्तो
अधिदेवता प्रत्यधिदेवता सहिताय भगवते सूर्याय नमः
ॐ अग्निर्मूर्धा दिवक्रकुत्पतिः पृथिव्या अयम् अपागुम् रेदागुंसि किम्बी योनापृथिविभवानक्षरा निवेशनी यच्छा नः शर्म सप्रथाः क्षेत्रस्य पदिना वयगुम्भितेनेव जयामसि गामश्वम्बोषयित्वासनो मृणादीदृशे
अधिदेवता प्रत्यधिदेवता सहिताय भगवते अङ्गारकाय नमः
ॐ प्रभः शुक्राय भानवे भरद्धनुं हव्यं मतिं चाग्नये सुपूतम् यो दैव्यानि मानुषा जनो गृह्यन्तर्विश्वानि विद्वना जिगाति इन्द्राणी मासुमानुषु सुपत्नी महवश्रवम् नश्यस्या अपरं जनजलसामरते पतिः इन्द्रं यो विश्वतस्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः
अधिदेवता प्रत्यधिदेवता सहिताय भगवते शुक्राय नमः
ॐ आप्याय स्वसमेतुते विश्वतः सोममृष्णियम् भवावादस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानिभेषजा अग्निम् च विश्वशम्भुपमापश्च विश्वभेषजीः गौरीमाय सलिलामितक्षत्येकपदी द्विपदी सा चतुष्पदी अष्टापदी नवपदी बभूभुषी सहस्राक्षरा परमे व्योमन्
अधिदेवता प्रत्यधिदेवता सहिताय भगवते सोमाय नमः
ॐ उद्बुद्धस्वाग्ने प्रतिदादृश्येन मिष्टा पूर्ते सकुंसृते कामयम् च पुनः कृण्वद्वत्वामितनयुवानमन्वादांसीत्वयितन्तुमेतम् इदम् निष्पर्विचक्रमे क्रेधानि दधे पदम् समूढमस्य पागुंसुरे विष्णो ररागमसि विष्णो पृष्ठमसि विष्णो स्वे स्वो विष्णो स्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा
अधिदेवता प्रत्यधिदेवता सहिताय भगवते बुधाय नमः
ॐ बृहस्पते अधियधर्यो अर्हाद्युमद्विभाधिक्रतुमज्जनेषु यद्दीदयच्छवसर्पप्रजा तदधस्मासुद्रविनन्देहि चित्रम् इन्द्रमरुक्क इह पाहि सोमै यथा शार्याते अपि वस्तुतस्य तव प्रणीती तव शूरशर्मन्नाविवासन्ति गमयस्तु यज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषीमतः सुरुचोकेन आवह स बुद्धिया उपमा अस्य दृष्टाः सतश्च यो निमसतश्च विवः
अधिदेवता प्रत्यधिदेवता सहिताय भगवते बृहस्पतये नमः
ॐ शन्नो देवीरभिष्टय आवो भवन्तु प्रीतये शय्योरभिस्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि बलिता बभूव यत्कामास्ते दुहुमस्तन्नो अस्तु वयग्रस्यामवतयोरहीनाम् इमय्यमप्रस्तरमाहि सीदाङ्गिरोभिः पितृभिः संविधानः आत्मामन्दाकविशस्तावहन्तेनाराजनहविषामादयस्व
अधिदेवता प्रत्यधिदेवता सहिताय भगवते शनैश्चराय नमः
ॐ कयानश्चित्त्वा भुवदूती सदा वृथः सखा कया सचिष्ठया वृता आलिङ्गौ वृष्टिरक्रमेदसन्मातरम् पुनः पितरम् च प्रयान् सुवः यत्ते देवी नगरतिराभवम् तदामग्रीवा स्वविधत्यम् इदम् ते तद्दृश्याम्यायुषो न मध्या तथा जीवः पितुमद्य प्रमुक्तः
अधिदेवता प्रत्यधिदेवता सहिताय भगवते राहवे नमः। ॐ
केतुं कृण्वन्न केतवे पेशो मर्या अपेशसे समुषद्भिरदा यथा ब्रह्मा देवानां पदवीकवीनां सर्वप्राणां महिषो मृगानां श्येनो गृध्रानागस्वधिदर्वणा नागुंसोमपवित्रमत्येतिरे भन्ने सचित्रचित्रं चितयन्तमस्मे चित्रक्षत्रचित्रदम्बयोधा चन्द्रं वयम्बुर्वीरं बृहन्तं चन्द्रचन्द्राभिर्णरे युवस्व
अधिदेवता प्रत्यधिदेवता सहिताय भगवते चेतवे नमः।
ॐ आसक्ते नरदसा वर्तमानो निवेशयन्नमृतं मद्यं च हिरण्ययेन स पिता रथेना देवो याति भुवनानि पश्यन् अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् अस्य यज्ञस्य सुकृतम् येषामीषे पशुपतिः पशूनां चतुष्पदामुतचद्धिपदा निष्क्रियो यै यज्ञियं भागमेतुराय स्पोषायजमानस्य सन्तो
अधिदेवता प्रत्यधिदेवता सहिताय भगवते सूर्याय नमः।
ॐ अग्निर्मूर्धा दिवक्रकुत्पतिः पृथिव्या अयम् अपागुं रेरागुंसि जिन्वने योना पृथिविभवानक्षरा निवेशनी यथा नः शर्म सप्रथाः क्षेत्रस्य पदिना भयगुम्भितेने भजयामसि गामश्वं वोषयित्वासनो मृडादीदृशे
अधिदेवता प्रत्यधिदेवता सहिताय भगवते अङ्गारकाय नमः।
ॐ प्रभः शुक्राय भानवे भरद्धनुं हव्यं मतिञ्चाग्नये सुपूतम् यो दैव्यानि मानुषा जनोगस्यन्तर्विश्वानि विद्वना जिगाति इन्द्राणि मासुनादिषु सुपत्नी महवश्रवम् नश्यस्या अपरं जनजलसामरते पतिः इन्द्रं यो विश्वतस्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः।
अधिदेवता प्रत्यधिदेवता सहिताय भगवते शुक्राय नमः।
ॐ आप्याय स्वसमेतुते विश्वतः सोमवृष्णियं भवावादस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानिभेषजा अग्निं च विश्वशम्भुपमापश्च विश्वभेषजीः गौरीमिमाय सलिलामितक्षत्येकपदी द्विपदी सा चतुष्पदी अष्टापदी नवपदी बभूभुषी सहस्राक्षरा परमेभ्योमन्
अधिदेवता प्रत्यधिदेवता सहिताय भगवते सोमाय नमः।
ॐ उद्बुद्धस्वाग्ने प्रतिदागृष्येण विष्टा पूर्ते सगुंसृते सामयम् च पुनः कृण्वद्वस्त्वा पितरञ्जुमानमन्वादागुंसीत्वयितन्तुमेतम् इदं निष्पर्विचक्रमे क्रेधानि दधे पदम् समूढमस्य पागुंसुरे विष्णो ररागमसि विष्णो पृष्ठमसि विष्णोश्चत्वे स्वो विष्णो स्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा
अधिदेवता प्रत्यधिदेवता सहिताय भगवते बुधाय नमः।
ॐ बृहस्पते अधियधर्यो अर्हा द्विमद्विभाधिक्रतुमज्जनेषु यद्दीदयच्छव सर्पप्रजा तदस्मा सुत्रभिनन्देहि चित्रम् इन्द्रमरुक्क इह पाहि सोमय्यथा शार्याते अभिवस्तुतस्य तव प्रणीती तव शूरशर्मन्नाविवासन्ति गमयः सुयज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषीमतः सुरुचोभेन आवह स बुद्धिया उपमा अस्य पृष्ठाः सतश्च यो निमसतश्च विवः
अधिदेवता प्रत्यधिदेवता सहिताय भगवते बृहस्पतये नमः
ॐ शन्नो देवीरभिष्टय आपो भवन्तु प्रीतये संयोरभिस्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि बलिता बभूव यत्कामास्ते दुहुमस्तन्नो अस्तु वयज्ञस्यामपतयोरहीनाम् इमय्यमप्रस्तरमाहिजीदाङ्गिलोभिः पितृभिः संविधानः आक्वामन्दाकविशस्तावहन्ते नाराजन हविषामादयस्व
अधिदेवता प्रत्यधिदेवता सहिताय भगवते शनैश्चराय नमः
ॐ कयानश्चित्त्वा भुवदूती सदा पृथः सखा कया सचिष्ठया भृता आलिङ्गौ पृष्टिरक्रमेदसनन्मातरम् पुनः पितरम् च प्रयान् सुवः यत्ते देवी निररुतिराभवम् सदा मग्रीवा स्वविचत्यम् इदम् ते तद्दृश्याम्यायुषो न मध्या तथा जीवः पितुमद्य प्रमुक्तः
अधिदेवता प्रत्यधिदेवता सहिताय भगवते राहवे नमः
ॐ केतुम् कृण्वन्न केतवे पेशो मल्या अपेशसे समुषद्भिरजा यथाः ब्रह्मा देवानाम् पदवी कवीनाम् ऋषिर्विप्राणाम् महिषो मृगानाम् श्येनो गृध्रा नागस्वधि दर्वणा नागुंसो मत्पवित्रमत्ये गिरे भण्डे सचित्रचित्रम् चितयन्तमस्मे चित्तक्षत्रचित्रदम्ब योधा चन्द्रम् वयम्बुर्वीरम् बृहन्तम् चन्द्रचन्द्राभिर्नरे युवस्व
अधिदेवता प्रत्यधिदेवता सहिताय भगवते चेतवे नमः
ॐ आसक्ते नरदसा वर्तमानो निवेशयन्नमृतम् मद्यम् च हिरण्ययेन स पिता रथेना देवो याति भुवनानि पश्यन् अग्निन्दूतम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुकृतम् येषामीशे पशुपतिः पशूनाम् चतुष्पदामुदचद्विपदा निष्क्रियो यै यज्ञियम् भागमेतुरायस्पोषाभिजमानस्य सन्तो
अधिदेवता प्रत्यधिदेवता सहिताय भगवते सूर्याय नमः
ॐ अग्निर्मूर्धादिवक्रकुत्पतिः पृथिव्या अयम् अपागुं रेदागुंसि जिन्वने योना पृथिविभवानक्षरा निवेशनी यच्छा नः शर्म सप्रथाः क्षेत्रस्य पदिना भयगुम्भितेनेव जयामसि गामश्वम्बोषयित्वासनो मृणादीदृशे
अधिदेवता प्रत्यधिदेवता सहिताय भगवते अङ्गारकाय नमः
ॐ प्रभः शुक्राय भानवे भरद्धनुम् हव्यम् मतिञ्चाग्नये सुपूतम् यो दैव्यानि मानुषा जनो गृह्यन्तर्विश्वानि विद्वना जिगाति इन्द्राणी मासुनादिषु सुपत्नी महमश्रमम् नश्यस्या अपरञ्चन जलसामरते पतिः इन्द्रम् गो विश्वतस्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः
अधिदेवता प्रत्यधिदेवता सहिताय भगवते शुक्राय नमः
ॐ आप्यायस्वसमेतुते विश्वतः सोममृष्णियम् भवावादस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानिभेषजा अग्निम् च विश्वशम्भुपमापश्च विश्वभेषजीः गौरीमायसलिलामितक्षत्येकपदी द्विपदी सा चतुष्पदी अष्टापदी नवपदी बभूभिषी सहस्राक्षरापदमेभ्योमन्
अधिदेवता प्रत्यधिदेवता सहिताय भगवते सोमाय नमः
ॐ उद्बुद्धस्वाग्ने प्रतिदागृष्येण विष्टा पूर्ते सकंसृते सामयम् च पुनः कृण्वद्वस्त्वा पितरयुवानमन्वादांसीत्वयितन्तुमेतम् इदम् विष्णुर्विचक्रमे क्रेधानि दधे पदम् समूढमस्य पागुंसुरे विष्णोररागमसि विष्णो पृष्ठमसि विष्णोश्चत्वे त्वो विष्णो स्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा
अधिदेवता प्रत्यधिदेवता सहिताय भगवते बुधाय नमः
ॐ बृहस्पते अधियधर्यो अर्हाद्युमद्विभाधिक्रतुमज्जनेषु यद्दीदयच्छवसर्पप्रजा तदस्मा सुत्रविनन्देहि चित्रम् इन्द्रमरुक्क इह पाहि सोमय्यथा शार्याते अपि वस्तुतस्य तव प्रणीति तव शूरशर्मन्नादिवासन्ति गमयस्सु यज्ञा ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषीमतः सुरुचोभेन आवह स बुद्धिया उपमा अस्य पृष्ठाः सतश्च यो निमसतश्च विवः
अधिदेवता प्रत्यधिदेवता सहिताय भगवते बृहस्पतये नमः
ॐ शन्नो देवीरभिष्टय आपो भवन्तु प्रीतये संयोरभिस्रवन्तु नः प्रजापतेन त्वदेतान्यो विश्वा जातानि बलिता बभूव यत्कामास्ते दुहुमस्तन्नो अस्तु वयज्ञस्यामपतयोरहीनाम् इमय्यमप्रस्तरमाहिजीदाङ्गिरोभिः पितृभिः संविधानः आत्मामन्दाकविशस्तावहन्ते नाराजन हविषामादयस्व
अधिदेवता प्रत्यधिदेवता सहिताय भगवते शनैश्चराय नमः
ॐ कयानश्चित्रा भुवदूती सदा पृथः सखा कया सचिष्ठया भृता आलिङ्गौ पृष्टिरक्रमेदसरन्मातरम् पुनः पितरम् च प्रयान् सुवः यत्ते देवी निरृतिराभवन्तदामग्रीवा स्वविचत्यम् इदम् ते तद्दृश्याम्यायुषो न मध्या तथा दीमः पितुमद्य प्रमुक्तः
अधिदेवता प्रत्यधिदेवता सहिताय भगवते राहवे नमः
ॐ केतुम् कृण्वन्न केतवे पेशो मल्या अपेशसे समुषद्भिरजा यथाः ब्रह्मा देवानाम् पदवी कवीनाम् ऋषिर्विप्राणाम् महिषो मृगानाम् श्येनो गृध्रा नागस्वधिगर्वणा नागुंसोमः पवित्रमत्ये गिरे भन्ने सचित्रचित्रम् चितयन्तमस्मे चित्तक्षत्रचित्रतमम्बयोधा चन्द्रम् वयम्बुरुवीरम् बृहन्तम् चन्द्रचन्द्रापर्णरेयुवस्व
अधिदेवता प्रत्यधिदेवता सहिताय भगवते चेतवे नमः